अथ अष्टादशोऽध्यायः मोक्षसन्न्यासयोगः। अर्जुन उवाच, सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्। त्यागस्य च हृषीकेश पृथक्केशी निषूदन। श्रीभगवानुवाच, काम्यानां कर्मणां न्यासम् सन्न्यासं तव यो विदुः। सर्वकर्मफलत्यागम् प्राहुस्त्यागम् विचक्षणा। त्याज्यम् दोषवदित्येके कर्म प्राहुर्मनीषिणः। यज्ञदानतपः कर्म न त्याज्यम् इति चापरे। निश्चयम् शृणु मे तत्र त्यागे भरतसत्तम। त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः। यज्ञदानतपः कर्म न त्याज्यम् कार्यमेव तत्। यज्ञो दानम् तपश्चैव पावनानि मनीषिणाम्। एतान्यपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च कर्तव्यानीति मे पार्थ। निश्चितम् मतमुत्तमम् नियतस्य तु सन्न्यास कर्मणो नोपपद्यते। मोहात्तस्य परित्याग तामसः परिकीर्तितः। दुःखमित्येव यत्कर्म कायक्लेशभयात्यजेत्। सकृत्वा राजसं त्यागम् नैव त्यागफलम् लभेत्। कार्यमित्येव यत्कर्म नियतम् क्रियतेऽर्जुन। सङ्गम् त्यक्त्वा फलम् चैव सत्यागः सात्विको मतः। नद्वेष्ट्य कुशलम् कर्म कुशलेनानुषज्यते। त्यागी सत्त्वसमाविष्टो मेधावी छिन्न संशयः। न हि देहभृता शक्यम् त्यक्तुम् कर्माण्यशेषतः। यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते। अनिष्टमिष्टम् मिश्रम् च त्रिविधम् कर्मणः फलम् भवत्यत्यागिनाम् प्रेत्य न तु सन्न्यासिनाम् क्वचित्। पञ्चैतानि महाबाहो कारणानि निबोध मे। साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्। अधिष्ठानम् तथा कर्ता करणम् च पृथग्विदम्। विविदाश्च पृथक् चेष्टा दैवम् चैवात्र पञ्चमम्। शरीर वाङ्मनोभिर्य कर्म प्रारभते नरः। न्यायम् वा विपरीतम् वा पञ्चैते तस्य हेतवः। तत्रैवम् सति कर्तारम् आत्मानम् केवलम् तु यः पश्यत्यकृतबुद्धित्वान् न स पश्यति दुर्मतिः। यस्य नाहम् कृतो भावो बुद्धिर्यस्य न लिप्यते। हत्वापि स इमाम् लोकान् न हन्ति न निपद्यते। ज्ञानम् ज्ञेयम् परिज्ञाता त्रिविधा कर्म चोदना। करणम् कर्म कर्तेति त्रिविध कर्म सङ्ग्रहः। ज्ञानम् कर्म च कर्ता च तदैव गुणभेदतः। रोच्यते गुणसङ्ख्याने यथावच्छृणुतान्यपि। सर्वभूतेषु येनैकम् भावमव्ययमीक्षते। अविभक्तम् विभक्तेषु तज्ज्ञानम् विद्धि सात्विकम्। पृथक्त्वेन तु यज्ज्ञानम् नानाभावान् पृथग्विदान्। वेति सर्वेषु भूतेषु तज्ज्ञानम् विद्धि राजसम्। यत्तु कृत्स्नवदे कस्मिन् कार्ये सक्तमहैतुकम् अतत्वार्थवदल्पम् च तत्तामसमुदाहृतम् नियतम् सङ्गरहितम् अरागद्वेषदकृतम् अफलप्रेत्सुना कर्म यत्तत्सात्विकमुच्यते यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः क्रियते बहुलायासम् तद्राजसमुदाहृतम् अनुबन्धम् क्षयम् हिंसा अनपेक्ष च पौरुषम् मोहादारभ्यते कर्म यत्तत्तामसमुच्यते मुक्तसङ्गो नहं वादी कृत्युत्साहसमन्वितः सिद्ध्यः सिद्ध्यो निर्विकार कर्ता सात्विक उच्यते रागी कर्मफलप्रेप्सुर्लुप्तो हिंसात्मको शुचिः हर्षशोकान्वितः कर्ता राजसपरिकीर्तितः अयुक्तप्राकृतस्तब्ध षटो नैष्कृतिकोलसः विषादी दीर्घसूत्री च कर्ता तामस उच्यते बुद्धे वेदम् घृतेश्चैव गुणतस्त्रिविदम् शृणु रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय प्रवृत्तिम् च निवृत्तिम् च कार्याकार्ये भयाभये बन्धम् मोक्षम् च या वेत्ति बुद्धिः सा पार्थ सात्विकी यया धर्मम् अधर्मम् च कार्यम् चाकार्यमेव च अयतावत् प्रजानाति बुद्धिः सा पार्थ राजसी अधर्मम् धर्ममिति या मन्यते तमसावृता सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी विद्या यया धारयते मनःप्राणेन्द्रियक्रिया योगेनाव्यभिचारिण्या कृतिः सा पार्थ सात्विकी यया तु धर्मकामार्थान् कृत्या धारयतेऽर्जुन प्रसङ्गेन फलाकाङ्क्षी कृतिः सा पार्थ राजसी यया स्वप्नम् भयम् शोकम् विषादम् मदमेव च न विमुञ्चन्ति दुर्मेधा कृतिः सा पार्थ तामसी सुखम् पिदानीम् त्रिविधम् शृणु मे भरतर्षभ अभ्यासाद्रमते यत्र दुःखान्तम् च निगच्छति यत्तदक्रे विषमिव परिणामे मृतोपमम् तत्सुखम् सात्विकम् प्रोक्तम् आत्मबुद्धिप्रसादजम् विषयेन्द्रियसंयोगा यत्तदग्रे मृतोपमम् परिणामे विषमिव तत्सुखम् राजसंस्मृतम् यदग्रे चानुबन्धे च सुखम् मोहनमात्मनः निद्रालस्य प्रमादोत्तम् तत्तामसमुदाहृतम् न तदस्ति पृथिव्याम् वा दिवि देवेषु वा पुन सत्त्वम् प्रकृतिजैर्मुक्तम् यदेभिः स्यात्रिभिर्गुण ब्राह्मणक्षत्रियविषाम् शूद्राणाम् च परम् तप कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः शमोदमस्तपः शौचम् शान्तिरार्जवमेव च ज्ञानम् विज्ञानमास्तिक्यम् ब्रह्मकर्म स्वभावजम् शौर्यम् तेजो घृतिर्दाक्ष्यम् युक्ते चाप्यपलायनम् दानमीश्वरभावश्च क्षात्रम् कर्म स्वभावजम् कृषि गौरक्ष्यवाणिज्यम् वैश्यकर्म स्वभावजम् పరిచర్యాత్మకం కర్మ శూత్రస్యాపి స్వభావజం స్వే స్వే కర్మణ్యభిరతః సంసిద్ధిం లభతే నరః స్వకర్మ నిరత సిద్ధిం యతా విందతి తచ్చృణు యత ప్రవృతి భూతానాం ఏన సర్వమిదం తతం స్వకర్మణాతమభ్యర్చ్య సిద్ధిం విందతి మానవః శ్రేయాన్ స్వధర్మో విగుణః పరధర్మాత్ స్వనుష్ఠితాత్ స్వభావ నియతం కర్మ కుర్వన్నాప్నోతి కిల్బిషం సహజం కర్మ కౌంతేయ సదోషం అపి న త్యజేత్ సర్వారంభాహి దోషేన ధూమేనాగ్నిరావృతా అసక్త బుద్ధి సర్వత్ర చితాత్మా విగత స్పృహః నైష్కర్మ్య సిద్ధిం పరమా సన్యాసేనాదిగచ్చతి సిద్ధి ప్రాప్తో యతా బ్రహ్మ తతాప్నోతి నిబోధమే సమాసేనైవ కౌంతేయ నిష్ఠా జ్ఞానస్య యా పరా బుద్ధ్యా విశుద్ధ్యా యుక్తో వృత్త్యాత్మానం నియమ్య చ శబ్దాదీన్ విషయాం త్యక్త్వా రాగద్వేషౌ వ్యదుస్య చ వివిక్త సేవీ లగ్వాషీ యత వాక్యాయ మానసః ధ్యాన యోగ పరో నిత్యం వైరాగ్యం సముపాశ్రితః అహంకారం బలం దర్పం కామం క్రోధం పరిగ్రహం విముచ్య నిర్మమ శాంతో బ్రహ్మభూయాయ కల్పతే బ్రహ్మభూత ప్రసన్నాత్మా న శోచతి న కాంక్షతి సమః సర్వేషు భూతేషు మద్భక్తిం లభతే పరాం భక్త్యా మామభిజానాతి యావాన్యశ్చాస్మి తత్వతః తతో మాం తత్వతో జ్ఞాత్వా విశతే తదనంతరం సర్వకర్మాణ్యపి సదా కుర్వాణో మద్వ్యపాశ్రయః మత్ప్రసాదాదవాప్నోతి శాశ్వతం పరమవ్యయం చేతసా సర్వకర్మాణి మయి సన్యస్య మత్పరః బుద్ధియోగం ఉపాశ్రిత్య మచ్చిత్తః సతతం భవ మచ్చిత్తః సర్వదుర్గాణి మత్ప్రసాదాతరిష్యసి అథ చేత్మహంకారాన్ నశ్రోష్యసి వినంక్ష్యసి యదహంకారమాశ్రిత్య నయోత్స్యా ఇతి మన్యసే మిథ్యైష వ్యవసాయస్తే ప్రకృతిస్త్వాం నియోక్ష్యతి స్వభావజేన కౌంతేయ నిబద్ధస్వేన కర్మణా కర్తుం నేచ్చసి యన్మోహాత్ కరిష్యస్య వశోపితత్ ఈశ్వరః సర్వభూతానాం హృద్దేశేర్జున తిష్టతి బ్రామయన్ సర్వభూతాని యంత్రారూఢాని మాయయా తమేవ శరణం గచ్ఛ సర్వభావేన భారత తత్ప్రసాదాత్ పరాం శాంతిం స్థానం ప్రాప్స్యసి శాశ్వతం ఇతి తే జ్ఞానమాఖ్యాతం గుహ్యాగుహ్యతరం మయా విమృశ్యైతద్ అశేషేన యతేచ్ఛసి తథా కురు సర్వగుహ్యతమం భూయ శృణు మే పరమం వచః ఇష్టోసి మే దృఢమితి తతో వక్ష్యామి తే హితం మన్మనా భవ మద్భక్తో మద్యాజీమాం నమస్కురు మామే వైష్యసి సత్యం తే ప్రతిజానే ప్రియోసి మే సర్వధర్మాన్ పరిత్యజ్య మామేకం శరణం వ్రజ అహం త్వా సర్వపాపేభ్యో మోక్షయిష్యామి మాశుచః ఇదం తే నా తపస్కాయ నా భక్తాయ కదాచన न चाशुश्रूषवे वाच्यम् न च माम् योऽभ्यसूयति यैदम् परमम् गुह्यम् मद्भक्तेष्वभिधास्यति भक्तिम् मयि पराम् कृत्वा मामेवैष्यत्य संशयः न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः भविता न च मे तस्मात् अन्यप्रियतरो भुवि अद्येष्यते च य इम गर्भ्यम् संवादमावयो ज्ञानयज्ञेन तेनाहम् इष्टस्यामिति मे मतिः श्रद्धावानन सूयश्च शृणुयादपि यो नरः सोऽपि मुक्तः शुभाम् लोकान् प्राप्नुयात् पुण्यकर्मणात् कश्चिदेतच्छ्रुतम् पार्थ त्वयैकाग्रेण चेतसा कश्चिदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय अर्जुन उवाच नष्टो मोहस्मृतिर्लब्धा तत्प्रसादान्मयाच्युत स्थितोऽस्मि गतसन्देह करिष्ये वचनम् तव सञ्जय उवाच इत्यहम् वासुदेवस्य पार्थस्य च महात्मनः संवादमिममच्छ्रौष अद्भुतम् रोमहर्षणम् व्यासप्रसादाश्रुतवा नेतद्गुह्यमहम् परम् योगम् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् राजन् संस्मृत्य संस्मृत्य संवादम् इममद्भुतम् केशवार्जुनयो पुण्यम् हृष्यामि च मुहुर्मुहो तञ्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतम् हरे विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीद्विजयो भूत् ध्रुवानीतिर्मतिर्मम इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नाम अष्टादशोऽध्यायः।